मम सर्वेभ्यः अद्य शिक्षावर्गस्य सप्तविंशः अन्तिमः च पाठः डिसेम्बर् मासस्य पञ्चदशः दिनाङ्कः गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो गतसप्ताहे वयं शालच् प्रत्ययस्य भिन्नासु विभक्तिषु प्रयोगः कथं भवति इति ज्ञातवन्तः तथैव सत्सप्तमी अथवा सतिसप्तमी इति प्रयोगस्य विषये कांश्चन अंशान् दृष्टवन्तः कदा तस्य उपयोगः भवति कथम् उपयोगः भवति इत्यादि काव्यांशेषु किरातार्जुनीयस्य काव्यकथायां कश्चन भागः अधीतः तपोभङ्गप्रयत्नः तथा अर्जुनस्य तपसः परीक्षा इति अद्य सत्सप्तम्याः प्रयोगस्य अभ्यासं कुर्मः सर्वे श्रोतुमर्हन्ति श्रूयते किल अस्तु धन्यवादाः तत्र सत्सप्तमी प्रयोगस्य आधारः भवति क्रियाद्वयम् यथा आगमनक्रिया इति काचित् क्रिया अस्ति भोजनक्रिया इति अपरा क्रिया अस्ति द्वयोः त्रेधा सम्बन्धः भवितुम् अर्हति क्रियाद्वयं समानकाले भवति अथवा आगमनक्रिया भोजनात् पूर्वं भवितुमर्हति अथवा आगमनक्रिया भोजनात् अनन्तरं भवितुमर्हति एवं कालत्रये सम्बन्धः भवति सः सम्बन्धः अस्माभिः भिन्नासु रीतिषु बोधयितुं शक्यते यथा यदा तदा यदा आगच्छति तदा भुङ्क्ते भोजनात् पूर्वं भुङ्क्ते भोजनात् पूर्वम् आगच्छति अथवा भोजनात् अनन्तरम् आगच्छति इति साक्षात् कथनम् अस्ति किन्तु तत्रैव विशिष्टः एषः प्रयोगः अपि भवति सो मयि भोजनं कृतवती सति सः आगच्छति सो मया भोजनं कृतं तदनन्तरं सः आगच्छति इत्यर्थः मयि भोजनं कुर्वति सति सः आगच्छति सो कुर्वन् अस्मि सो तदा सः आगच्छति अथवा अहं भोजनम् अग्रे करिष्यामि ततः पूर्वमेव सः आगतवान् मयि भोजनं करिष्यति सति सः आगच्छति इति इयमेव सत्सप्तमी सतिसप्तमी भावलक्षणसप्तमी इति भिन्नैः शब्दैः उच्यते तत्र मूलनियमः अयं क्रियया क्रिया लक्ष्यते एकस्याः क्रियायाः समयः अन्यया क्रियया उच्यते तदेव लक्षणम् इति सो अत्र ज्ञाप्यक्रिया काचित् भवति ज्ञापकक्रिया काचित् भवति ज्ञाप्य यस्य ज्ञानम् अपेक्षितम् यस्याः क्रियायाः विषये प्रश्नः अस्ति कदा आगच्छति इति प्रश्नः सो तस्य आगमनसमयं सूचयितुम् अस्माभिः भोजनक्रिया स्वीक्रियते सा ज्ञापकक्रिया इत्युच्यते सो ज्ञाप्यक्रिया अस्ति ज्ञापकक्रिया अस्ति सो तत्र ज्ञाप्यज्ञापकभावः इत्युच्यते ज्ञापकक्रियायाः बोधनं सप्तम्यन्तेन क्रियते Tadeva Satsaptami, Yapaka Kriya, that Kriya which is giving the time or which is indicating the time of another Kriya. Atra Sat Shabdaha, As Dhatoho, Shatri Pratyayanta Shabdaha, Tasya Saptami Vibhaktau, Pullinge Sati Satoho Satru, Trilinge Satyam Satyoho Satishu, Evam Napumsake Sati Satoho Satsu Iti Bhavati, Asyaiva Sat Saptami Athava Sati Saptami Iti Prayogaha, Asya Prayogaha Kartavyaha Eva Iti Nasti, not compulsory to use it, Kintu Saha Arthaha Asti. Ataha Asyaha Saptamyaha Sat Saptami Athava Sati Saptami Iti Nama Bhavati. Kanichana Udaharanani Api Drishtani. Khage Dayamane Vrishtihi Arabdha. Khagaha Akashe Dayamanaha Asti Tada Vrishtihi Arabdha. So samana kalatvam yada vartamana kale arthat kriya dvayam api samana kale bhavati tada shatri shanach pratyayoh upayogah kriyate. So valikasu khidyamanasu santoshavarta prapta yada taha khidyamanah asan dukham anubhavantyah asan tasminneya samaye santoshavarta kachit prapta. So kavitayam gayantyam anuja narkitavati. Kavita gayati tasminneva samaye anuja nrityam karoti ityartha. Sasyeshu vardhamaneshu udyanapalakaha santushtaha. Sasyani vardhante so tasmin samaye tasya santoshaha bhavati. So trabhyasam kurmaha ekaha padakhandaha diyate tasya saptamyantena parivartanam kartavyam. So padadvayam api parivartaniyam. Ye vaktum icchanti hastamunnayantu. Vijayashri.
Namaste. Gacchati chatre.
Gacchati chatre. Gacchan chatraha. Gacchati chatre. Samyak. So as the student was going, when he was going, ityarthaha. Ekam kshanam. Excuse me. Shobha Bhagini.
Yashri Malika. Malika Sum. Balikayam, nrityantyam balikayam.
Samyak. Nrityantyam balikayam.
Rudantaha Shishavaha Shishushu Rudatsu Shishushu.
Samyak. Rudatsu Shishushu. So yad vachanam asti tasyaiva vachanasya saptami vaktavya.
Udgachat shiram. Udgachat Shati. Shire.
Shire. Udgachati. Shire.
Shire.
Patantishu Parnavanishu Parneshu
Parneshu Napumsakalingam Srilingam na. So Patati
Patatsu Parneshu
Samyak Patatsu Parneshu. So Parneshu Patatsu Pullinge Napumsakalinge Patati Patatohu Patatsu Itteva Rupam Trilinge to Patantyam Patantyoho Patantishu Iti Bhavati.
Namaste Bhagavadini. Pachant Sudah Sudah, that is an equation. Sudasu
Bahua Pullingam Pullingam.
It is Suda is Pullingam.
Sudaha Pachakaha.
Sudaha Pachakaha. Sudayam
Sude Sudayoho.
Sude Sudam is Pulling Sude Sudayoho. Sudasu
Sudeshu
Sudeshu.
Ah.
Pachansu Pachatsu Sudeshu
Sudeshu Samyak Pachatsu Sudeshu
Sudeshu
Sudaha ityasya pachakaha ityarthaha. So Pachatsu Sudeshu, as the cooks were cooking, as the leaves were falling, as the milk was rising up. So tasmineva samaye anyat kimapi karyam etat purnam vakyam na. So, gacchati chatre kim abhavat iti vaktavyam etatu kevalam satsaptamyaha vakya khandaha. So, vakya prayogaha katham bhavati iti pashyamaha. So, atra kamse yadasti shatra athava shanajantaha vakya khandaha tasya saptami satsaptami prayogaha kartavyaha tada vakyam purnam bhavati. Dasharathaha apatat. Kada dasharathaha apatat. Yada ramaha gacchan asid, tada apatat. Ataha ramaha gacchan ityasya saptamyantena prayogaha kartavyaha. Rame gacchati dasharathaha apatat. Saha gacchan asti tada eva dasharathaha patitaha ityasthaha. So, dasharathasya patanam iti kriya jnapya kriya. Kada apatat iti asmabhihi jnatavyam. So, tat bodhayati anyakriya ramaha gacchati iti. So, tatra jnapaka kriyayaha saptami bhavati sa saptami ityuchyate. Rame gacchati dasharathaha apatat. Agrimasya prayatnam kuruvantu. Kepi. Evrayatnam kartum icchanti hastam unnayantu.
Damayantyam agat damayantyam agat agatchantyam nalaha rupam parivartitavan.
Samyak. Damayantyam agatchantyam nalaha rupam parivartitavan. Nalaha rupam parivartitavan. He changed his form. Kada? Iti chet, yada damayanti agachanti asi tada. Ataha damayantyam agachantyam nalaha rupam parivartitavan. Mrigaha adhavat. Kada adhavat iti vaktavyam.
Lakshmane anudhavat. Anudhavati mrugaha athavat.
Lakshmane anudhavati. So as Lakshmana was following सो यदा सः अनुधावनं कृतवान् तदा मृदः अग्रे अधावत्। श्रीकृष्णः समागतः। कदा समागतः? द्रौपदी आह्वयन्ती आसीत् तदा।
द्रौपद्याम् आह्वयन्त्याम् श्रीकृष्णः समागतः।
सम्यक्। द्रौपद्याम् आह्वयन्त्याम् श्रीकृष्णः समागतः। उत्तमम्। रामः क्रुद्धः। कदा? यदा राक्षसाः समुत्पतन्तः।
श्रूयते वा?
हा श्रूयते।
राक्षसासु
राक्षसेषु
राक्षसेषु समुत् पन्त्येषु रामः क्रुद्धः।
पतति पततोः
समुत्पन्ति
सप्तमी विभक्तिः। पतन् पतन्तौ पतन्तः। सो सप्तम्यां पतति पततोः
पतत्सु
पतत्सु
राक्षसेषु समुत्पन्तेषु रामः कृतः।
समुत्पतत्सु
समुत्पतत्सु
राक्षसेषु समुत्पतत्सु रामः
क्रुद्धः।
सो समुत्पतन्ति आक्रमणं कुर्वन्ति इत्यर्थः। सो समुत्पतत्सु रामः क्रुद्धः। गृहस्थः वीजितवान्। सो हि फाण्ड्। सो करव्यजनं भवति किल पुरातनकाले तत्। कदा? यदा अतिथिः भुञ्जानः आसीत्।
अतिथेः
अतिथौ
अतिथौ भुञ्जाने गृहस्थः वीजितवान्।
अतिथौ भुञ्जाने। सो शानच् प्रत्ययः। भुञ्जानः आसीत् तदा। सो अतिथौ भुञ्जाने गृहस्थः वीजितवान्।
जनाः स्वरमाणाः केचन स्खलित्वा पतिताः। जनेषु स्वरमाणेषु केचन स्खलित्वा पतिताः।
सम्यक्। जनेषु त्वरमाणेषु जनाः त्वरन्ते। सो एस् द पीपल् वेर् हरियिङ्ग् केचन स्खलित्वा पतिताः। जनेषु त्वरमाणेषु केचन स्खलित्वा पतिताः।
सूर्ये प्रकाशमानः अन्धकारः।
सूर्यः प्रकाशमानः।
सूर्यः न इट् शुड् बि सूर्य देयर् न सूर्य सूर्ये सूर्ये प्रकाशमाने अन्धकारः क्व।
सम्यक्। सो सूर्ये प्रकाशमाने। सो एस् द सन् इस् शैनिङ्ग् अन्धकारः क्व गतः इति अभिप्रायः। सो क्व भवति? वेर् केन् द डार्क्नेस् बी? अग्रे अन्ये केऽपि वक्तुमिच्छन्ति? कर्णः सन्तुष्टः। कदा?
इन्द्रः कवचकुण्डलं याचमानः कर्णः सन्तुष्टः। इन्द्रे कवचकुण्डलं याचमाने कर्णः सन्तुष्टः।
सम्यक्। इन्द्रे कवचकुण्डलं याचमाने। तत्र यदि अन्यानि पदानि सन्ति तानि न परिवर्तनीयानि। केवलं शानच् तस्य विशेष्यम् सो शानत् सर्वदा कर्तुः विशेष्यम् भवति इन्द्रे याचमाने कर्णः संतुष्टः किम् याचमाने कवचकुण्डलम् सो तस्य परिवर्तनम् न कर्तव्यम् सो वेन् यु आर् कन्वर्टिङ्ग् फ्रम् प्रथम टु फ्रम् टु सप्तमी सप्तमी प्रथमा विभक्तौ यदस्ति तस्यैव परिवर्तनम् कर्तव्यम् अन्यत् किमपि अस्ति चेत् सो देर् केन् बि अदर् वर्ड्स् इन् दट् फ्रेस् तेषाम् परिवर्तनम् न कर्तव्यम् सो इन्द्रे इन्द्रः कवचकुण्डलम् याचमानः सो इन्द्रे कवचकुण्डलम् याचमाने कर्णः सन्तुष्टः अग्रे अन्ये केऽपि अष्टम् किमपि नास्ति सप्तमी विभक्तिः वक्तव्या तावदेव पदद्वयस्य सप्तमी विभक्तिः वक्तव्या
गोपिकासु कृष्णम् स्मरत्सु
स्त्रीलिङ्गम्
अस्ति गोपिकासु
स्मरन्त्योः स्मरन्त्यां स्मरन्त्योः स्मरन्तीषु नदीषु
ओ आम् स्मरन्तीषु गोपिकासु कृष्णं स्मरन्तीषु
स्मरन्तीषु सः प्रत्यक्षः अभवत् यदा ते स्मरन्त्यः आसन् तदैव सः प्रत्यक्षः अभवत् शरथः बाणप्रयोगं कृतवान् क्षम्यताम् अत्र दोषः अस्ति बाणप्रयोगं कृतवान् कदा
श्रवणे जलम् उद्धरणे
सप्तमी
वाट् इस् इट् उद्धरन्
उद्धरन् उद्धरन्तौ उद्धरन्तः
ओके उद्धरति
सम्यक् उद्धरति
श्रवणे जलम् उद्धरति दशरथः बाणप्रयोगं कृतवान्
श्रवणे जलम् उद्धरति दशरथः बाणप्रयोगं कृतवान् यथा श्रवणः जलम् उद्धरन् आसीत् सो एज़् हि वास् फिलिङ्ग् वाटर् और् टेकिङ्ग् वाटर् दशरथ शाट् हिस् एरो सो श्रवणकुमारः श्रवणः इति
मन्मथः बाणं प्रयुञ्जानः शिवः तृतीयनेत्रम् उद्घाटितवान् मन्मथे बाणं प्रयुञ्जाने शिवः तृतीयनेत्रम् उद्घाटितवान्
सो मन्मथे बाणं प्रयुञ्जाने यदा मन्मथः बाणप्रयोगं कुर्वन् आसीत् तदा एव शिवः तृतीयनेत्रम् उद्घाटितवान् इत्यर्थः सो मन्मथे बाणं प्रयुञ्जाने शिवः तृतीयनेत्रम् उद्घाटितवान् सो अत्र कश्चन प्रश्नः अस्ति सो यदि विशेषणानि सन्ति अन्यानि विशेषणानि यथा धीरः रामः वनं गच्छति तदा दशरथः अपतत् सो तदा तु तस्य विशेषणस्य अपि कर्तव्यम् यद्यत् प्रथमाविभक्तौ अस्ति यथा धीरः रामः वनं गच्छन् सो तदा किं भवति धीरे रामे वनं गच्छति दशरथः अपतत् मया प्रथमायां यद्यदस्ति विशेषणं शानजन्तमपि शत्रुशानजन्तमपि विशेषणं भवति वस्तु अन्यानि विशेषणानि सन्ति चेत् तेषामपि परिवर्तनं करणीयं तद्विहाय अन्यासु विभक्तिषु किमपि अस्ति चेत् यथा रामः किं धीरः रामः राज्यं परित्यज्य वनं गच्छन् आसीत् तदा दशरथः पतितवान् सो धीरे रामे राज्यं परित्यज्य वनं गच्छति सो धीरे रामे गच्छति सो धीरः रामः गच्छन् धीरे रामे गच्छति अन्यत् सर्वं तु तदेव भवति धीरे रामे राज्यं परित्यज्य वनं गच्छति धीरे रामे वनं राज्यं परित्यज्य सीतालक्ष्मणाभ्यां सह वनं गच्छति सो इट् केन् बी लाङ्ग् यु केन् आड् अदर् थिङ्ग्स् बिकास् दिस् इट्सेल्फ् इस् अ क्रिया सो अन्यानि कारकाणि भवितुम् अर्हन्ति काव्येषु तथैव भवति एकं सप्तमी अस्ति चेत् तत्र बहूनि पदानि भवन्ति किन्तु वाट् इस् इन् सप्तमी इस् ओन्ली द कर्ता सो कर्तरि शतृशानच् सो तस्यैव सप्तम्यां भवति अन्यत् सर्वं सप्तम्यां न भवति सो सर्वाणि पदानि सत्सप्तमी प्रयोगे सप्तम्यां भवन्ति इति न रैट् सो इदानीम् अस्माभिः किं दृष्टम् वर्तमानकाले इत्युक्ते क्रियाद्वयं ज्ञाप्यक्रिया ज्ञापकक्रिया द्वयमपि समानकाले यदा भवति तदा शत्रुशानचोः प्रयोगः क्रियते यदा तु समानकालिकत्वं नास्ति एका क्रिया पूर्वं भवति तदनन्तरमेव अन्या क्रिया भवति तदा किं भवति सो सामान्यतः भूतकाले क्त क्तवतु एतयोः प्रयोगः क्रियते एतयोः प्रत्ययोः विषये ज्ञायते भूतकाले क्तप्रत्ययः क्तवतु प्रत्ययश्च भवति सो तत्र तेषामपि प्रयोगः क्रियते यथा सूर्ये अस्तङ्गते वयं प्रत्यागताः कदा सूर्ये अस्तङ्गते सूर्यः अस्तङ्गतवान् सो सन् हेस् सेट् सो आफ्टर् द सन् सेट् तदा वयं प्रत्यागताः सूर्यास्तमनानन्तरं वयं प्रत्यागताः न तु यदा सूर्यः अस्तङ्गच्छन्नासीत् तदा न सूर्ये अस्तङ्गच्छति वयं प्रत्यागताः इत्युक्ते as the sun was setting we came अत्र तु अस्तङ्गतः सो आफ्टर् द सन् हेड् सेट् वि केम् सो रामे वनं गते दशरथः मृतः सो रामे वनं गच्छति पतितः कदा मृतः रामः वनं गतवान् तदनन्तरमेव मृतः अतः रामे वनं गते दशरथः मृतः पुत्रेषु परीक्षायाम् उत्तीर्णेषु माता तुष्टा सो वेन् द चिल्ड्रन् हेड् पास्ड् सो दे हेव् आलरेडी पास्ड् द एक्साम् देन् द मदर् वास् हेपी सो पुत्रेषु परीक्षायाम् उत्तीर्णेषु सो उत्तीर्ण इस् आल्सो क्त प्रत्ययान्त सो वृक्षे पतितवती यानानि स्थगितानि वृक्षः पतितवान् तदनन्तरं सो after the tree fell the vehicles were stopped sarveshu aarudhavatsu vimanam prasthitam so vimanam prasthitam kada sarve aarudhavantah tadanantaram vimanam prasthitam so asya abhyasam kurmah so pita gatah tada shishuh ruditavan so asya saptami
पितरि गते शिशुः रुदितवान्
सम्यक् पितरि गते सो आफ्टर् द फादर् वेण्ट् सो द फादर् हेड् गोन् वेन् द फादर् हेड् गोन् द चैल्ड् क्रैड्
कपाटिका उद्घाटिता वस्त्राणि पतितानि कपाटिकायाम् उद्घाटिते वस्त्राणि
कपाटिकायाम्
उद्घटिते
त्रिलिङ्गं किल समानं कपाटिकायां
उद्घाटितायाम्
उद्घाटितायाम्
उद्घाटितायाम् वस्त्राणि पतितानि
कपाटिकायाम् उद्घाटितायाम् सो वेन् द डोर् वाज़् ओपन्ड् वस्त्राणि पतितानि Just a moment. Some problem with termination today.
परीक्षाः समाप्ताः बालाः प्रवासार्थं गतवन्तः परीक्षासु समाप्तासु बालाः प्रवासार्थं गतवन्तः
परीक्षासु समाप्तासु सो आफ्टर् द एग्जाम्स् वेर् ओवर् बालाः प्रवासार्थं गतवन्तः
बालाः लिखितवन्तः अध्यापकः प्रश्नान् पृष्टवान् बालाः बालेषु लिखितवत्सु अध्यापकः प्रश्नान् पृष्टवान्
बालेषु लिखितवत्सु बालाः सर्वे लिखितवन्तः तदनन्तरं सः प्रश्नान् पृष्टवान् इत्यर्थः बालेषु लिखितवत्सु अध्यापकः प्रश्नान् पृष्टवान् अन्ये केऽपि वक्तुमिच्छन्ति
धनं प्राप्तेषु सः वस्त्राणि क्रीतवान्
पुनः
धने प्राप्तेषु
एकवचनमेव
ओके धने प्राप्ते सः वस्त्राणि क्रीतवान्
सम्यक् धने प्राप्ते सः वस्त्राणि क्रीतवान् उत्तमम्
पुष्पाणि विकसितानि सर्वत्र सुगन्धः प्रसृतः पुष्पेषु विकसितेषु सर्वत्र सुगन्धः प्रसृतः
पुष्पेषु विकसितेषु सर्वत्र सुगन्धः प्रसृतः When the flowers bloomed, there was fragrance spread everywhere. सो एवं भूतकाले यदा ज्ञापकक्रिया भवति सो पूर्वं ज्ञापकक्रियायाः पूर्वं यदा ज्ञापकक्रिया भवति तदा अत्र क्तवतु प्रत्यययोः सप्तम्यन्तः उपयुज्यते गतवर्गे केनचित् पृष्टं यदा तदा इत्यस्य स्थाने वा इति सत्यं सो यत्र सामान्यतः यदा तदा इति उपयोगः क्रियते तत्र यदा तदा इत्येतौ विना सत्सप्तम्याः प्रयोगेन सः अर्थः बोधयितुं शक्यते सो वाहनम् आगच्छत् आसीत् तदा यदा वाहनम् आगच्छत् आसीत् तदा बालाः धावितवन्तः सो वाहनम् आगच्छत् इति अत्र खण्डः सो तस्य सत्सप्तमी सो वाहने आगच्छति सो यदा तदा इति नापेक्षितम् आसीत् इत्यपि न तस्य स्थाने एव सति इति अध्याहारः क्रियते वाहने आगच्छति सति इति सो वाहनम् आगच्छत् वाहने आगच्छति बालाः धावितवन्तः as the vehicle was coming or approaching the boys fled vahane agachyati balaah धावितवन्तः. यदा माता पुत्रं स्मरन्ती आसीत् तदा पुत्रः आगतवान्.
मातरि पुत्रे पुत्रं स्मरन्त्यां पुत्रः आगतवान्.
सम्यक्. मातरि पुत्रं स्मरन्त्यां पुत्रः आगतवान्. As the mother was remembering her son, he came. So मातरि पुत्रं स्मरन्त्यां सः अथवा पुत्रः आगतवान्. So यदा अर्चकः पूजयन् आसीत् तदा पुष्पप्रसादः प्राप्तः.
अर्चके अर्चके पूजयन् पूजयन् पूजयति पुष्पप्रसादः प्राप्तः.
सम्यक्. अर्चके पूजयति पुष्पप्रसादः प्राप्तः. उत्तमम्.
अग्निषु हसन्तिषु हसन् सति
पिता आगतवान्. भगिनीषु हसन्तीषु पिता आगतवान्. यदि सत्शब्दस्य प्रयोगः कर्तव्यः तदा सतीषु इति योजनीयम्. सामान्यतः न योज्यते. तद्विना एव सप्तम्या एव सः अर्थः बोध्यते. सो यदा वृष्टिः आगता तदा वस्त्राणि आर्द्राणि. अन्ये
वृष्टिः आगता वृष्टौ आगत्यां
आगतायाम्
वृष्टौ आगतायां वस्त्राणि आर्द्राणि.
सो वृष्टौ वृष्ट्याम् उभयमस्ति. मतौ मत्याम् आगतायां वस्त्राणि आर्द्राणि. यदा गुरुः दृष्टः तदा सः नमस्कृतवान्.
तदा सः नमस्कृतवान्. गुरुः सप्तमी गुरुषु गुरौ दृष्टे गुरौ दृष्टे तदा गुरौ दृष्टे सः नमस्कृतवान्.
सम्यक्. गुरौ दृष्टे सः नमस्कृतवान्. सम्यक्. सो एवं सत्सप्तम्याः प्रयोगः सरलः एव. तत्र मुख्यतः क्रियाद्वयं किं का क्रिया ज्ञापकक्रिया इति ज्ञातव्या. अत्र पुस्तके सत्सप्तम्याः सन्दर्भे कर्मणि शानचः उल्लेखः क्रियते. अतः तद्विषये किञ्चित् उच्यते. अधिकं नास्ति. अभ्यासाः अपि न सन्ति पुस्तके. तथापि कर्मणि शानश्च इत्यस्य उल्लेखः अस्ति. सः वस्त्रं कुरुते. सो तस्य शानच् प्रत्ययः किं भवति? सः वस्त्रं कुर्वाणः अस्ति. एतत्तु कर्तरि शानच्. कः करोति? सः. अतः सः कुर्वाणः इति. तेन वस्त्रं क्रियते इति तस्य कर्मणि प्रयोगः. सः वस्त्रं कुरुते अथवा करोति ఉభయం వక్తుం శక్యతే. సో సహ వస్త్రం కుర్వన్ అస్తి అథవా కుర్వాణః అస్తి ఉభయపదీ ధాతు. సో తేన వస్త్రం క్రియతే. సో తేన వస్త్రం క్రియమాణం అస్తి. సో ద క్లాత్ ఇస్ బీయింగ్ మేడ్ బై హిమ్ ఇతి కర్మణి ప్రయోగే అపి శానచ్ ప్రత్యయః ఉపయోక్తుం శక్యతే. యథా లకారే కర్మణి ప్రయోగః క్రియతే సో తత్రాపి శానచ్ ప్రత్యయః భవతి. సః కర్మణి శానచ్ ఇత్యుచ్యతే. సో తేన వస్త్రం క్రియమాణం అస్తి. సో సహ వస్త్రం కుర్వాణః అస్తి. సో కుర్వాణః ఇతి సహ ఇతి కర్తుః విశేషణం. అత్ర తు వస్త్రం క్రియమాణం ఇతి కర్మణః విశేషణం భవతి కర్మణి శానచ్ ప్రత్యయః. ఏషః సర్వేభ్యః ధాతుభ్యః కర్మణి శానచ్ ఏవ భవతి శతృ ప్రత్యయః న భవతి. యథా జానంతి కర్మణి ప్రయోగే సర్వేభ్యః ధాతుభ్యః ఆత్మనేపదం ఏవ భవతి. జానంతి కిల సహ పాఠం పఠతి తేన పాఠః పఠ్యతే తేన ధావ్యతే తేన గమ్యతే. సో కర్మణి ప్రయోగే సర్వేభ్యః ధాతుభ్యః ఆత్మనేపదం ఏవ భవతి. అతః శానచ్ ఏవ భవతి. కర్మణి శత్రు ప్రత్యయః న భవతి, శానచ్ ప్రత్యయః ఏవ భవతి. సర్వేభ్యః ధాతుభ్యః భవతి. సహ ఫలం ఖాదన్ అస్తి. సా ఫలం ఖాదంతీ అస్తి. తే ఫలం ఖాదంతః సంతి. సో శత్రు ప్రత్యయః కర్తరి. సో సహ ఖాదన్, సా ఖాదంతీ, తే ఖాదంతః. కింతు తేన ఫలం ఖాద్యమానం అస్తి. ఫ్రూట్ ఇస్ బీయింగ్ ఈటన్ బై హిమ్. సో తయా ఫలం ఖాద్యమానం అస్తి. తైహి ఫలం ఖాద్యమానం. సో కర్మణః విశేషణం. సో కర్మ సమానం చేత్ శానచ్చపి సమానమేవ భవతి. సో కర్తృపదం భిద్యతే చేదపి భేదః న భవతి. సో అన్యద్ ఉదాహరణం పశ్యామః. సహ ఖాదన్ ఫలం ఖాదన్ అస్తి. సహ పర్పటం ఖాదన్ అస్తి. పర్పటః పాపడ్. సహ పూరికాం ఖాదన్ అస్తి. పూరి. సో అత్ర ఖాదన్ ఇత్యస్య పరివర్తనం న భవతి, యతో హి కర్తా సమానః. కింతు శానచ్ ప్రత్యయం పశ్యామః చేత్ తేన ఫలం ఖాద్యమానం అస్తి. పర్పటః ఖాద్యమానః అస్తి. పూరికా ఖాద్యమానా అస్తి. సో కర్మణః విశేషణత్వేన కర్మణి శానచ్ ప్రత్యయః ఉపయుజ్యతే. సప్తమ్యాం అస్యాపి ప్రయోగః భవితుం అర్హతి. యథా నూతన భవనేషు నిర్మీయమాణేషు నగరం వర్ధతే. యాజ్ న్యూ బిల్డింగ్స్ ఆర్ బిల్ట్ ద సిటీ గ్రోస్. సో భవనాని నిర్మీయమాణాని. సో దే ఆర్ బీయింగ్ బిల్ట్. సో నూతన భవనేషు నిర్మీయమాణేషు నగరం వర్ధతే. సో జలే నీయమానే. యాజ్ వాటర్ ఇస్ బీయింగ్ టేకన్ ఘటః పతితః. సో సర్వైహి భోజనే క్రియమాణే తే తాంబూలం ఆనీతవంతః. చలచిత్రే దృశ్యమానే విద్యుత్ గత. యాజ్ ద మూవీ వాజ్ బీయింగ్ సీన్. సో అస్యాపి ప్రయోగః కర్తుం శక్యతే. సో విశేషః కోపి నాస్తి అత్ర. సప్తమ్యాం ప్రయోగః తావదేవ. సో కింతు అయం కర్మణి శానచ్ ప్రత్యయః ఇత్యుచ్యతే. సో ఏవమేవ వస్తుతః భవిష్యతి అపి శత్రుశానచోః ప్రయోగః అస్తి. సో అస్య పుస్తకే ఉల్లేఖః నాస్తి. తథాపి వయం శత్రుశానచోః అధ్యయనం కృతవంతః ఇత్యతః కించిదివ ఉచ్యతే. భవిష్యత్ కాలే అపి శత్రుశానచోః, సామాన్యతః వర్తమానకాలే ఇతి వదామః. సో రామః రావణం హనిష్యన్ దశరథస్య పుత్రత్వేన జాతః. సో అగ్రే హనిష్యతి దశరథస్య పుత్రత్వేన జాతః. కిమర్థం రావణం హంతుం. సో తత్ర సామాన్యతః తుమునః అర్థః అగ్రే కిమపి కార్యం కరిష్యతే పూర్వం కిమపి కరోతి ఇత్యర్థే భవిష్యతి शत्र शानच उभयम् प्रत्ययम् प्रत्ययौ द्वौ अपि भवतः. सो करिष्यमाणस्य कार्यस्य युक्तायुक्तत्वं चिन्तय. सो युक्त अयुक्तत्वं, सो प्रोस एंड कॉन्स ऑफ द डीड विच विल बी डन. करिष्यमाणं कार्यं न तु क्रियमाणं, इदानीं न क्रियते, अग्रे करिष्यते. सो तस्य युक्तायुक्तत्वं चिन्तय. So think about the pros and cons of the work which will be done ahead. So karishyamanasya karyasya yukta yuktatvam cintaya. Saha bandhun drakshyan swagramam gacchati. So swagramam gacchati tatra bandhun drakshyati ityarthah. So bhagavan prarthayishyamanam aprishtah eva anugrihitavan. So that which will be asked for, so that he gave even without asking. So prarthayishyamanam natu prarthyamanam, not that which is being asked, that which will be requested he gave even earlier without asking. So evam bhavishyatkale api kshatrishanachohu prayogaha bhavati iti janimaha tasya prayogaha agre kadachit kavyeshu anyatra drishyante athava drakshyante. अनेन शिक्षा वर्गस्य व्याकरणांशाः समाप्ताः. प्राधान्येन सन्धयः दृष्टाः, हल् सन्धयः एवं विसर्गसन्धयः. शत्रुशानच् प्रत्ययोः लिङ्गत्रये सर्वासु विभक्तिषु प्रयोगः दृष्टः, सत्सप्तमी प्रयोगः अपि दृष्टः. काव्यांशेषु शिक्षास्तरे प्राधान्यं भवति अन्वयरचन, कथं श्लोकस्य अन्वयः आकाङ्क्षाक्रमेण अन्वयः कर्तव्यः. तत्र भगवद्गीतायाः श्लोकानां सुभाषितानाम् अन्वयरचना दृष्टा. लोकोक्तयः अथवा लौकिकन्यायाः प्रहेलिकाः अपि काश्चन दृष्टाः. सो दे आर् मैनर् स्टफ्. सो काव्यकथा इति कश्चित् भागः, महाकाव्यद्वयस्य कथा संक्षेपः ज्ञायते. सो तत्र शिशुपालवधस्य कथा ज्ञाता. इदानीं किरातार्जुनीयस्य कथायाम् अन्तिमः भागः, वस्तुतः किरातार्जुनयोः युद्धं यत्र भवति सः भागः अवशिष्टः. अधुना पठामः. ये पठितुमिच्छन्ति हस्तमुन्नयन्तु.
श्रूयते वा?
श्रूयते.
शिवः एकं वनेचरं प्रेषितवान्. स आगत्य अर्जुनं निवेदितवान्, भवान् राजश्रेष्ठः इति ममाभिप्रायः, अतः प्रार्थनां करोमि. अस्य वराहस्य शरीरे बाणो लग्नः, तो अस्माकम् अधिपस्य बाणः. भवान् महापुरुषः, भवता शिवबाणस्य अपहरणं न कर्तव्यम् इति. सन्धिविच्छेदं करणीयं.
सामान्यः अर्थः, एतावत्पर्यन्तं किं जातम्? अर्जुनः तपः कुर्वन् आसीत्, तस्य तपसा, तत्र वने वसन्तः ऋषिमुनयः पीडिताः, ते शिवं प्रार्थितवन्तः. शिवः अर्जुनं परीक्षितुम् इच्छति. मूकः नाम दानवः वराहस्य रूपं धृत्वा आगत्य तत्र अर्जुनस्य तपसः भङ्गं कर्तुं प्रयतते. अर्जुनः बाणं प्रयुङ्क्ते, तस्मिन्नेव समये शिवः अपि बाणं प्रयुङ्क्ते. सः वराहः मृतः, उभाभ्यामपि बाणाभ्याम् आहतः वराहः मृतः। तदा अर्जुनः स्वस्य बाणं तेन प्रयुक्तः बाणः तत् स्वीकर्तुं गच्छति। तदा ततः इयं कथा अनुवर्तते। शिवः एकं वनेचरं प्रेषितवान्। वनेचरः कश्चित् वनवासी इत्यर्थः, अतः किरातः किल, किरातवेषेण आगच्छति, अतः तस्य अनुचरः कश्चिदन्यः। गणेषु कश्चित् वनचररूपेण किरातरूपेण प्रेषितः शिवेन। सः आगत्य अर्जुनं निवेदितवान् किमिति, भवान् राजश्रेष्ठः, अतः प्रार्थनां करोमि, वराहस्य शरीरे यः बाणः अस्ति सः अस्माकम् अधिपस्य बाणः। सो केन बाणेन सः वराहः हतः इत्यत्र उभयोः कलहः। सो वदति सः तव बाणः न, अस्माकम् अधिपः अस्ति तस्य बाणः, भवता शिवबाणस्य अपहरणं न कर्तव्यम्। सो शूरः भवान्, अतः अन्येषां बाणः भवता न स्वीकरणीयः इति सः वदति। अग्रिमम्
अर्जुनः उक्तवान्, शिवस्य बाणः कुत्रापि लीनः स्यात्, अयं ममेव बाणः, शूरस्य मम अन्येषां बाणस्य अपेक्षा नास्ति, किञ्च युगपत् बाणः प्रयुक्तः, अयं शिवस्यैव बाण इति वक्तुं न युक्तिः, अहं वनवासी, वराहं हन्तु ममाधिकारो त्वयैव इति,
अस्त्येव इति,
ममाधिकारो अस्त्येव इति
इति उक्तवान्। सम्यक्। सो अर्जुनः किं वदति, एषः शिवस्य बाणः कुत्रापि गतः स्यात्, अयं तु ममैव बाणः, सो अहं शूरः, अन्येषां बाणस्य अपेक्षा मम तु नास्ति, किञ्च, किञ्च मीन्स् आल्सो, सो वेन् यु आर् आडिङ्ग् टोन् टु आर्ग्युमेण्ट्स् यु से किञ्च। सो युगपत् बाणः प्रयुक्तः, मया तेन च समानकाले, युगपत् इत्युक्ते समानकाले इत्यर्थः, समानकाले बाणः प्रयुक्तः, तत्र शिवस्यैव बाणः इति वक्तुं न युक्तिः, किमपि कारणं नास्ति। सो अहं वनवासी, वने अहम् इदानीं वसामि तपसः कारणेन, वराहं हन्तुं, सः तत्र बहु अस्ति, सः किरातः आगत्य वदति, वयं किराताः वने वासिनः, अस्माकमेव अधिकारः अत्र वन्यमृगान् हन्तुम् इति, अतः अर्जुनः वदति अहमपि वनवासी, ममापि अधिकारः अस्ति वराहं हन्तुम् इति अर्जुनः कथयति। सो एतत् स्मर्तव्यम्, इदं सर्वम् अत्यन्तं संक्षेपेण उच्यते, वस्तुतः महाकाव्ये प्रायः किरातर्जुनयोः युद्धे षट् वा सप्त वा सर्गाः एव सन्ति, एकैकस्मिन् अपि सर्गे शतपर्यन्तं श्लोकाः भवन्ति। सो तत्र यद्यदस्ति तत्सर्वम् अत्यन्तं संक्षेपेण अत्र दीयते। सो लीनः इत्यस्य अर्थः, लीनः इट् इस् मर्ज्ड् समवेर्, सो वने कुत्रापि लीनः, यु आर् नाट् फैण्डिङ्ग् इट्, इट्स् गान् एण्ड् मर्ज्ड् वित् समथिङ्ग् एल्स् इत्यर्थः, एम्बेडेड् समवेर् एल्स्। ओके, सो अग्रिमम्
नमो नमः। वनेचरो निवृत्तः सः शिवं सर्वम् उक्तवान्। वनेचर, हौ टु ट्रान्स्लेट्?
द ट्रैबल्,
द ट्रैबल्, हि वेण्ट् अण्ड् हि टोल्ड् एव्रिथिङ्ग् टु शिव। किरातरूपः शिवः प्रमथगणं प्रेषितवान्, हिस् ग्रूप् आफ् हिस् गणास्,
Pramatha is the Shiva Ganas, they are called Shiva Pramatha.
So Shiva centers Shiva Ganas. Pramatha Ganaha Arjunena Saha Yuddham Akarot. The Ganas fought with Arjuna, Kintu Parajitaha, they were defeated. Anantaram Shivasya Sutaha Kartikeya कार्तिकेयः युद्धाय आगतवान् देन शिवास एंड कार्तिकेयः केम फॉर फाइटिंग अर्जुनः तमपि पराजितवान् अर्जुनः अर्जुना डिफीटेड कार्तिकेयः टू ततः स्वयं शिवः एव युद्धार्थं प्रस्थितः देन शिव लॉर्ड शिव हिमसेल्फ केम फॉर फाइटिंग
सम्यक् सो शिवस्य गणः आगच्छति अर्जुनेन पराजितः शिवस्य पुत्रः देवसेनापतिः कार्तिकेयः सः अपि अर्जुनेन पराजितः अन्ते स्वयं शिवः आगच्छति
किरातार्जुनयोर्मध्ये भीकरं युद्धं प्रवृत्तम् युद्धं दृष्ट्वा देवाः चकिताः किरातः अतीव युद्धकुशलः अतः तं दृष्ट्वा अर्जुनः तर्कितवान् किरातो अयं रथसैन्यहीनः तथापि मम सामर्थ्यं कुंठितं करोति अतः अयं न किरातः दिव्यास्त्रैः अस्य पराक्रमः निवारणीयः इति
सो किरात अर्जुनयोः युद्धं प्रचलति सो सर्वे देवाः अपि आश्चर्यान्विताः भवन्ति सो सामान्य युद्धेन अर्जुनः किरातं पराजेतुं न शक्नोति अतः सः तर्कितवान् ऊहितवान् हि डेड्यूस्ड् सो थिङ्किङ्ग् लाजिकलि तर्कितवान् हि रीज़न्ड् किं सो रथसैन्यहीनः वितौट् एनी चारियट् आर् आर्मीस् तथापि मम सामर्थ्यं कुण्ठितं न्यूनं सो हि इस् रिड्यूसिङ्ग् मै एफिशियन्सि आर् मै केपबिलिटि सो ऐ एम् नाट् एबल् टु डील् वित् हिम् अतः अयं न किरातः सो वस्तुतः किरातः न स्यात् दिव्यास्त्रैः अस्य पराक्रमः निवारणीयः अस्य निवारणार्थं मया केवलं शस्त्राणां प्रयोगेन न शक्यते दिव्यानि अस्त्राणि उपयोक्तव्यानि इति अर्जुनः चिन्तयति
ततः अर्जुनः प्रस्वापनम् नामास्त्रं विमुक्तवान् अनेन महादेवः कुपितः तदा तस्य तृतीय नेत्राज्वलोत्पन्ना ज्वालोत्पन्ना प्रस्वापनास्त्रं विफलं जातम् अर्जुनः नागास्त्रं विमुक्तवान् तदापि विफलम् अभवत् ततः किरातार्जुनयोर्बाहु युद्धमेवारब्धम् भीकरं बाहु युद्धम् सो देन्
प्रस्वापनम् मीन्स् टु पुट् टु स्लीप् सो समथिङ्ग् विच् विल् मेक् यु अन्कान्शियस्
ओके ओ एण्ड् देट् मेड् महादेव वेरी एङ्ग्री सो हि started spouting flames from his third eye. And that defeated that Prasvapanastram. Then Arjuna releases Nagastram and that is also futile. And then they start wrestling. And that was a intense fight.
Correct. So Bahu Yuddham. So wrestling. Arabdham. Kirata Arjuna Yoho.
युद्धे महान् ध्वनिः उत्पन्नः उभयोरपि शरीरं रक्तमयं जातम् युद्धे शिवः उपरि उद्गतवान् किन्तु अर्जुनः तस्य पादं गृहीतवान् इदं दृष्ट्वा शिवः बहु सन्तुष्टः शिवः किरातवेषं परित्यज्य निजरूपमेव स्वीकृतवान् अर्जुनः शिवं नमस्कृतवान् शिवः अपि अर्जुनम् आलिङ्गितवान् तदा दिव्यध्वनिर् उत्पन्नः पुष्पवृष्टिश्च अभवत्।
युद्धस्य वर्णनं क्रियते। बहुकालं युद्धं कृत्वा उभयोः शरीरं रक्तमयं जातं। सो अन्ते शिवः उपरि उद्गतवान्। सो हि फ्लैज् अप्, हि मूव्स् अप्, किन्तु अर्जुनः तस्य पादं गृहीतवान्। तदा सन्तुष्टः शिवः किरातवेषं परित्यज्य स्वस्य नैजं रूपं धृतवान्। सो अर्जुनः नमस्कृतवान्, सः अपि आलिङ्गितवान्। सो एवं किरातार्जुनयोः युद्धं समाप्यते, अन्तिमः भागः।
श्रूयते वा? अर्जुनः वरं प्रार्थितवान्, शत्रुवर्गस्य नाशार्थं साधनं देहि इति। शिवः सन्तोषेण रहस्ययुतं पाशुपतास्त्रं दत्तवान्, धनुर्वेदमपि शिक्षितवान्। अर्जुनः धनुर्वेदं पठित्वा शिवस्य प्रदक्षिणं कृतवान्। इन्द्रादिदेवा अपि अर्जुनायास्त्राणि दत्तवन्तः। शिवस्याज्ञां अनुसृत्य अर्जुनः गृहं निवृत्तः। देन अर्जुन प्रेड to kill the enemies, give me a weapon or some whatever is appropriate to kill the enemies. And Shiva was very happy and he gave him Pashupatastra. And then he also taught him Dhanurvedam. Arjuna, after learning the Dhanurveda, he did pradakshina to Shivasya. And Indra and other devas also gave some powerful weapons to Arjuna. Shivasya jnana manusutya Arjuna, taking the advice or ajna of Shiva, Arjuna went home.
Sambhik. Shivasya ajnam anusritya. So anusritya anusarati sri dhato hu ityarthah. Sri gatau gachati. So following Shiva's order, Arjuna went home. His objective is fulfilled. Vyasena adishtaha asit kim shatrunam nashartham शस्त्रसङ्ग्रहं कुरु इति। युद्धार्थं तत्तु सम्पन्नं। शिवः पाशुपतास्त्रं दत्तवान्, धनुर्वेदं पाठितवान्, अन्ये देवाः अपि दिव्यास्त्राणि दत्तवन्तः। अतः तत्सर्वं प्राप्य अर्जुनः प्रतिगतवान्। प्रश्नाः। कस्य अपहरणं न कर्तव्यम् इति वनेचरः उक्तवान्?
शिवबाणस्य अपहरणं न कर्तव्यम् इति वनेचरः उक्तवान्।
सम्यक्। शिवबाणस्य अपहरणं न कर्तव्यम् इति उक्तवान्। शिवः युद्धार्थं कं प्रेषितवान्?
शिवयुद्धार्थ प्रथमगणः कार्तिकेय
प्रमथगणं कार्तिकेय
प्रेषितवान्।
प्रमथगणं कार्तिकेयं च प्रेषितवान्। महादेवः किमर्थं कुपितः? रामनाथ महोदय, अन्म्यूट् योर् सेल्फ्। यस्, म्यूटेड्।
आम् आम्, महादेव स्वापन
नाम अस्त्रम्।
स्वापनं नाम अस्त्रम् अर्जुनः क्षिप्तवान्, तदर्थं महादेवः कुपितः।
यदा अर्जुनः प्रस्वापनास्त्रम् उपयुक्तवान् तदा शिवः महादेवः कुपितः। शिवः किमर्थं संतुष्टः अभवत्?
Sorry, I can't speak in Sanskrit. I think he became santushed because Arjun fought a good fight and he fought very bravely.
So
that made him happy. Yes.
Yes. Anantaram saha padau grihitavan yada shivah udgacchat asit. So at the end, he holds his feet and does not allow him to fly away. So finally, he is happy. Shivaha kim astram arjunaya dattavan. Etattu sarve jananteva. So Shivaha pashupatastram dattavan arjunaya. So pashupatam pashupati hi Shivaha. Tasya astram pashupatastram arjunaya dattavan. So adhyasmavihi satsaptami prayogaha. क्रियया क्रियायाः बोधनं भवति. सो तत्र शत्रु शानजन्तयोः सत्सप्तमी प्रयोगः कथं भवति, क्त क्तवतु प्रत्ययान्तयोः सत्सप्तमी कथं भवति इति दृष्टवन्तः. काव्यकथायां किरातार्जुनीयस्य अन्तिमः भागः अपि अधीतः. सो अनेन शिक्षावर्गः समाप्तः. सो वी हैव कवर्ड most almost everything which is prescribed for the syllabus. So e parikshaam likhanti ketana likhitavantah api to agre ye lekhishyanti tesham shubhashamsanani. Agre covidah agre mahastarah covidah. So tasya pathanam api bhavishyati. So probably we'll start covidah sometime in February. So at the end of January or February. Okay. So hope to see you all there. So we'll be learning samasas mainly and other things as part of the lesson. So thank you all for being a part of this course. We'll upload all materials. So if you have benefited from this course, please consider supporting us. So you can find more about our organization. Vyoma Samskrita Pathashala is only a part of Vyoma Linguistics Labs Foundation, which is a non-profit organization working for Samskrita, Samskriti and Samskara. Right? So we do products, Sanskrit learning products at various levels. So starting from children, we have also for grammar, we have Sandhi, Samasa, etc. We have audio products for learning. So there is Bhagavad Gita, Ramayana Ratnamala, there is also Ashtadhyayi, Shabda Rupas and Dhatu Rupas and so on. So all products, you can get the details at digitalsanskritguru.com. So if you want to buy, somebody asked how to buy the Sandhi and Samasa CDs. So for any products, please visit digitalsanskritguru.com. So you will find all details and you can buy in various variants like web version or downloadable or CDs and so on. And please go to our website vyomalabs.in, which tells you more about what we try to do. And please support us in whatever way you can. Right. So we survive and sustain our efforts purely because of support from others. Right. So it's a free Pathashala where we have like nearly 100 courses. Most of them are free and there are nearly 10,000 people who are learning through the Pathashala. So whatever you give, whether it's a small amount or big amount, everything will be useful in continuing our activities. Okay. So thank you. See you soon in some other course. Guru Reva Tatir Guru Meva Bhaje Guru Naiva Sahasmi Namo Gurave. Na guroh paramam shishurasmi guror matirasti gurau mama pahi guroh.